इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका साधना शर्मा। आदौ मुख्याः वार्ताः। भारतं ग्रीसश्च स्वीययोः रणनीति सम्बन्धं दृढीकर्तुं प्रतिबद्धतां पुनः स्मारितवन्तौ। व्यापारः, रक्षणं, नौकावहनं, सम्पर्कः इत्यादिषु विविधेषु क्षेत्रेषु प्रगतेः समीक्षां कृतवन्तौ। विदेश मन्त्रालयः यः कनाडा उच्च आयोगस्य प्रतिनिधिम् आहूय उपमन्त्रिणा डेविड मॉरिसन इत्यनेन सह जन सुरक्षा राष्ट्र सुरक्षा स्थायी समितेः समक्षम् गृहमन्त्रिणः अमित शाहस्य सन्दर्भाणां विषये भारतस्य विरोधः प्रदर्शितः। भारतस्य चतुर्दिवसीय यात्रायां समागतेन थाईलैंडस्य विदेश मन्त्रिणा सह अद्य नवदिल्ल्यां विदेश मन्त्री डॉक्टर एस जयशंकरः मेलनं कृतवान्। कश्मीरोत्पत्तिकायाम् अनन्तनागे सुरक्षाबलैः सह संघर्षे द्वौ आतंकिनौ हतौ। अशेषे देशे गोवर्धन पूजनम् आमान्यते। अन्नकूटस्य अवसरे उत्तराखण्डस्य चतुर्षु धामसु एकस्य गंगोत्री धाम्नः कपाटः शीतकालाय पिहितः। अपि च भारतीया कृषा वर्मा गतदिवसे अमेरिकायाः कोलोराडो इत्यत्र ऊनविंशति वयस्यन्तर्गतं विश्व मुष्टिका स्पर्धायां स्वर्णपदकं विजितवती। इदानीं वार्ताः विस्तरेण। भारतस्य प्रधानमन्त्री नरेन्द्र मोदी ग्रीसस्य प्रधानमन्त्री किरियाकोस मित्सोताकिसश्च द्वयोः देशयोः मध्ये रणनीति सम्बन्धं प्रबलं कर्तुं स्वप्रतिबद्धतां पुनरुक्तवन्तौ। दूरवाणी संवादस्य माध्यमेन उभौ नेतारौ भारत मध्य पूर्व यूरोप आर्थिक विषये च पश्चिम एशियायां विकासेन च सह विभिन्न क्षेत्रीयाणां वैश्विक समस्यानां च विषये चर्चां कृतवन्तौ। तौ व्यापार, रक्षा, नौकावहन, सम्पर्क इत्यादिषु द्विपक्षीय सहयोगानां अनेकेषु क्षेत्रेषु प्रगतेः समीक्षां कृतवन्तौ। संवादे श्री मित्सोताकिसः भारते निर्वाचने पुनर्निर्वाचिते सति श्री मोदिने वर्धापनानि प्रेषितवान्। विदेश मन्त्रालयः यः कनाडा उच्च आयोगस्य प्रतिनिधिम् आहूय उपमन्त्रिणा डेविड मॉरिसन इत्यनेन सह जन सुरक्षा राष्ट्र सुरक्षा स्थायी समित्याः समक्षम् गृहमन्त्रिणः अमित शाहस्य सन्दर्भाणां विषये भारतस्य विरोधः प्रदर्शितः। अद्य अपराह्णे नवदिल्ल्यां वार्ताहरान् सम्बोधयन् मन्त्रालयस्य प्रवक्ता रणधीर जायसवालः अवदत् यत् ओटावा नगरे स्थायी समितेः कार्याचरण सम्बद्धं कूटनीतिक पत्रम् अक्टूबर मासस्य 29 दिनांके समर्पितम्। सः उक्तवान् यत् कनाडा देशस्य उच्चाधिकारिणः अन्ताराष्ट्रिय प्रवाहिकासु निराधार आक्षेपान् प्रसारयन्ति इति प्रकाशनं वर्तमान कनाडा सर्वकारस्य राजनैतिक कार्यक्रमस्य व्यवहार प्रकारस्य च विषये भारतस्य दृष्टिकोणं पुष्टिं करोति। भारतस्य चतुर्दिवसीय यात्रायां समागतेन थाईलैंडस्य विदेश मन्त्रिणा मैरिस सांगियां पोगसा इत्यनेन सह अद्य नवदिल्ल्यां विदेश मन्त्री डॉक्टर एस जयशंकरः मेलनं कृतवान्। जनसंपर्क पटले जयशंकरः प्रोक्तवान् यत् रॉयल कथिना समारोहस्य थाईलैंडस्य विदेश मन्त्री उभयोः देशयोः मध्ये प्रचलताम् ऐतिहासिक सांस्कृतिक संबंधानां उदाहरणम् अस्ति। विदेश मन्त्री डॉक्टर एस जयशंकरः श्वः आरभ्य ऑस्ट्रेलिया सिंगापुर देशयोः षड् दिवसीय यात्रायां गच्छति। विदेश मंत्री डॉक्टर एस जयशंकरः ब्रिस्बेन नगरं संप्राप्य ऑस्ट्रेलिया देशे भारतस्य चतुर्थ वाणिज्य दूतावासस्य उद्घाटनं करिष्यति। सः कैनबेरा नगरे स्वस्य ऑस्ट्रेलिया देशीय समकक्षेण पेनी वोंग इत्यनेन सह पञ्चदशतमे विदेश मंत्री रूपरेखा संवादस्य सह अध्यक्षः अपि भविष्यति। विदेश मंत्री ऑस्ट्रेलिया देशस्य संसद भवने आयोजितस्य द्वितीय रैसिना डाउन अंडर इत्यस्य उद्घाटन सत्रे मुख्य भाषणं प्रदास्यति। संस्कृत वार्तायाः संस्करणं इदं इदानीं आकाशवाणीतः प्रसार्यते। समम् एव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ newsonair चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। कश्मीरोत्पत्तिकायाम् अनंतनाग जनपदे हलकन मार्गिका क्षेत्रे अद्य मध्याह्ने सुरक्षाबलैः सह संघर्षे द्वौ आतंकिनौ हतौ। श्रीनगरे स्थितस्य चिनार कोरस्य जनसंपर्क पटलानुसारेण क्षेत्रे केषाञ्चित् आतंकिनां वर्तमानस्य सूचनान्तरम् आरक्षिबलैः सुरक्षाबलैश्च क्रियान्वयनं प्रारब्धम्। अपरत्र श्रीनगरस्य खन्यार क्षेत्रे सुरक्षाबलानाम् आतंकिनां च मध्ये गोलिका प्रहारः अभूवन्। अशेषे देशे गोवर्धन पूजनम् आमान्यते। उत्तराखण्ड चारधाम उत्तरकाश्याम् अन्नकूटस्य अवसरे अद्य उत्तराखण्डस्य चतुर्षु धामसु एकस्य गंगोत्री धाम्नः कपाटः शीतकालाय विहितः। अद्य रात्रौ 14:12 शुभ अभिजीत मुहूर्ते समये विशाल भक्तानां समूहस्य उपस्थितौ मन्दिरस्य द्वाराणि औपचारिक रूपेण पिधास्यन्ते। अस्मिन् अवसरे मन्दिरं विविधैः पुष्पैः अलंक्रियते। अस्मिन् वर्षे एतावताः 8,00,000 तीर्थयात्रिणः उत्तरकाशी मण्डलस्य गंगोत्री धाम्नः यात्रां कृतवन्तः। सहैव रुद्रप्रयागस्य केदारनाथ धाम्नः उत्तरकाशी यमुनोत्री धाम्नः च द्वाराणि पिधानं भवितुं सज्जता अपि समारब्धा। षष्ठी पूजनस्यावसरे यात्रिणां सौविध्याय विशेष रेल यानानि प्रचाल्यन्ते। राष्ट्रीय राजधान्याम् आनंद विहार नई दिल्ली निजामुद्दीन रेल स्थानेभ्यः विशेष रेल यानानि संचाल्यन्ते। उत्तर रेल विभागस्य मुख्य जनसंपर्क अधिकारी हिमांशु शेखर उपाध्यायः आकाशवाण्याः संवादं प्रोक्तवान् यत् उत्सवान् निधाय उत्तर रेल विभागेन दिल्ल्याः प्रमुखेभ्यः रेल स्थानेभ्यः विशेष रेल यानानि चाल्यन्ते। प्रधानमंत्री नरेन्द्र मोदी गुजरात नववर्षे अवसरे शुभकामनाश्च प्रदत्तवान्। रेलमंत्री अश्विनी वैष्णवः गतसायं नवदिल्ल्यां रेलस्थात्रस्य यात्रां कृतवान् यत्र असौ उत्सवसमये यात्रिणां कृते विशेष सौविध्यानां व्यवस्थानां च समीक्षां कृतवान्। भारतं कृषि प्रधानः देशः अस्ति, अतः उत्सवोऽयं गोमात्रा च सह सम्बद्धः वर्तते। अन्ताराष्ट्रिय श्रम संघटनस्य शासकीय निकायस्य 25th-30th उपवेशनं जिनेवा नगरे आयोज्यते। भारतीया कृषि वर्मा गतदिवसे अमेरिकाया कोलोराडो इत्यत्र 29 वयस्यन्तर्गतं विश्व मुष्टिका स्पर्धायां स्वर्ण पदकं विजितवती। प्रियाः श्रोतारः, संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकी इति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः FM गोल्ड प्रवाहिकातः प्रसार्यते इति वार्ताः।